सर्वेषां स्वागतं। प्रार्थनया आरम्भं कुर्मः। शुक्लां भरतरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। सरस्वती नमस्तुभ्यं वरदे कामरूपिणि, विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः, गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। ॐ सहना भवतु, सहनौ भुनत्तु, सह वीर्यङ्करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। अहं चिन्तयामि कथा मास्तु अपि च सुभाषितमपि मास्तु, वयं पुस्तकं प्रति एव गच्छामः, झटिति पुस्तकं समापयामः इति। पुस्तके पञ्चमी विभक्तिं पठामः वयम्। एकवारम् अत्र रूपाणि दृष्ट्वा अग्रे गच्छामः। अकारान्तपुल्लिङ्ग नपुंसकलिङ्गे समानमस्ति। रामात् रामाभ्यां रामेभ्यः, ज्ञानात् ज्ञानाभ्यां ज्ञानेभ्यः। अन्य सर्वत्र बहुवचनं मूलरूपं भ्यः एव, गुरुभ्यः पितृभ्यः, रमाभ्यः मतिभ्यः, वारिभ्यः मधुभ्यः, सर्वत्र समानमेव भवति। द्विवचनमपि समानमेव, मूलरूपं भ्यां पतिभ्यां पितृभ्यां मातृभ्यां रमाभ्यां भ्यां भ्यां भ्याम् एव। एकवचनमेव किञ्चित् भिन्नं भवति। पुल्लिङ्ग इकारान्तपदं हरेः, एवमेव स्त्रीलिङ्गे अपि इकारान्तपदं मतेः इति भवति। परन्तु स्त्रीलिङ्गे मत्याः इति अन्यविकल्पः अस्ति, मत्याः। नपुंसकलिङ्गे नकारः आगच्छति, वारिणः। परन्तु दधि अस्ति चेत् दद् नः एव भवति, दद् नः इति किञ्चित् भिन्नरूपं, दद् नः। नपुंसकलिङ्गे सर्वत्र नकारः भवति तृतीयाविभक्ति आरभ्य, वारिनः मधुनः इति। पत्युः पतिः इति किञ्चित् विशेषपदं, पत्युः इति भवति। ईकारान्तस्त्रीलिङ्गे गौर्याः इति अस्ति, गौर्याः। एकमेव विकल्पः अस्ति, अन्यविकल्पः नास्ति। उकारान्त उ अस्ति चेत् ओ भवति, ई अस्ति चेत् ए भवति, गुरोः। अपि च उ अस्ति चेत् वकारः आगच्छति, गुरु इव धेनोः, अनन्तरं धेन् वाः इति धेन्वाः। एवमेव वधू इति अस्ति चेत् वद्वाः इति भवति। ऋकारान्तपदं मातुः पितृः समानम्, पितुः पितृभ्यां पितृभ्यः, मातुः मातृभ्यां मातृभ्यः, समानमस्ति। अनन्तरं सर्वनामपदं तस्मात्, रामात् इव तस्मात् भवति, तस्मात्। तस्मात् ताभ्यां तेभ्यः, एवमेव नपुंसकलिङ्गे तस्मात् ताभ्यां तेभ्यः, कस्मात् काभ्यां केभ्यः, कस्याः काभ्यां काभ्यः। अत्र काभ्यः भवति स्त्रीलिङ्गे, नपुंसकलिङ्गे पुल्लिङ्गे एभ्यः इति भवति। भवत् शब्दः भवतः, षष्ठी अपि भवतः एव, भवतः नाम किम् इव, भवतः भवद्भ्यां भवद्भ्यः। स्त्रीलिङ्गे अपि षष्ठी इव, भवत्याः भवतीभ्यां भवतीभ्यः, सर्वत्र षष्ठी इव एकवचनं भवति। परन्तु द्विवचनं बहुवचनं भिन्न। अस्मदस्ति मत्, मत् आवाभ्याम् अस्मत्, मत् आवाभ्याम् अस्मत् एवम् अस्ति। प्रश्नः अस्ति वा? अस्ति चेत् पृच्छन्तु। अस्तु, पञ्चमीविभक्तेः प्रयोगः कुत्र भवति? प्रथमम् अस्ति वियोगः अथवा विभागः यत्र भवति तत्र पञ्चमीविभक्तिरूपं भवति। उदाहरण मैसूरुनगरतः अथवा नगरात् गच्छति, वृक्षात् पर्णं पतति एवं यत्र सेपरेशन् अस्ति तत्र एवं भवति। यत्र अवधिः अस्ति इत्युक्ते पीरियड् आरभ्य पर्यन्तम्, उदाहरणार्थं पञ्चवादनतः षड्वादनपर्यन्तं, सो अत्र अवधि अस्ति, एकहोरा अवधि अस्ति, तत्र आरभ्यपदस्य पञ्चमी भवति पञ्चवादनतः इति। पञ्चवादनतः दशवादनपर्यन्तं, मैसूरुतः बेङ्गलूरुपर्यन्तं, सो यत्र आरभ्यपद आरम्भपदस्य पञ्चमी विभक्तिः भवति। अन्य कुत्र यस्मात् भीतिः भवति तस्य पञ्चमी विभक्ति अपि भवति। उदाहरणम् अहम् अपायात् भीता अस्मि, व्याघ्रात् भीता अस्मि एवं एवं भवति। एवमेव यस्मात् रक्षणं भवति तस्यापि पञ्चमी विभक्ति भवति। उदाहरणं देवः अपायात् मां रक्षति, आरक्षकः व्याघ्रात् मां रक्षति, भीतिः अपि समानं रक्षणमपि समानं, सो एवम्। अपि च पूर्वः परः परं पूर्वं परं बहिः ऋते, एतादृशपदानां योगे अपि पञ्चमी विभक्ति भवति। उदाहरणं भरतः लक्ष्मणात् पूर्वः, अनन्तरम् अस्माकं कक्ष्यात् परम् एवं कक्ष्यात् परं, परन्तु अनन्तरम् इति अस्ति चेत् षष्टि भवति, कक्ष्यायाः अनन्तरं वर्गस्य अनन्तरं, परन्तु वर्गात् परम् इति भवति, वर्गात् परम् इत्युक्ते अनन्तरं, वर्गात् परं परन्तु वर्गस्य अनन्तरं। कर्मयोगः साङ्ख्ययोगात् परः अस्ति, किमर्थं परः इत्युक्ते परः पूर्वः इत्युक्ते पुल्लिङ्गपदं, लक्ष्मणः भरतः योगः इति पुल्लिङ्गपदम्, अतः परः भवति, नो चेत् परम् अथवा परा अपि भवति। विद्या विद्यापरा, विद्यायाः परा, अन्य किमपि नास्ति इति, इत्युक्ते ततोपि अधिकं, तादृश अर्थे अपि पञ्चमी विभक्ति भवति। सप्तवादनात् परम् अहं बहिः गच्छामि, गृहात् बहिः, बहिः अस्ति चेत् अपि पञ्चमी, देवात् ऋते कः रक्षेत् इति, ऋते अपि पञ्चमी विभक्तिरूपं भवति। प्रश्नः वा अत्र नास्ति इति मन्ये, अस्तु अत्र एव वयं स्थगितवन्तः खलु, आम् इति मन्ये,
आं भगिनि, आम्
अस्तु, धन्यवादः। सो अत्र आरम्भं कुर्मः, कः कस्मात् किं प्राप्तवान् इति अधः लिखितमस्ति, एतस्य आधारेण यथोदाहरणं वाक्यानि वदत। उदाहरणम् एवमस्ति, अम्ब पठितुमिच्छति वा, उदाहरणं पठतु अनन्तरं द्वितीयवाक्यं।
अर्जुनः शिवात् पशुपतास्त्रं प्राप्तवान्।
सम्यक्, शिवात् पशुपतास्त्रं, सो अत्र पञ्चमी विभक्तिः भवति।
अग्निः गाण्डीव
अग्नि इति, सो अग्नि इति अस्ति चेत् इकारान्तपदम्, इकारान्तपदं पदम् अस्ति चेत् कथं भवति, अग्नेः हरेः इव, अर्जुन
अग्नेः गाण्डीवं प्राप्तवान्,
अग्नेः गाण्डीवं प्राप्तवान्, अस्तु धन्यवादः। अग्रे जयश्री भगिनी।
कर्णः इन्द्रः शक्त्यायुधं
कर्णः इन्द्रात्
इन्द्रात् दक्ष्यायुधं प्राप्तवान्। सम्यक्
प्राप्तवान्।
लता भगिनी।
आं भगिनि, कृष्णः पञ्चजन्यं प्राप्तवान्।
पञ्चजनात् पाञ्चजन्यं प्राप्तवान्। धन्यवादः। अग्रे भीष्मः शन्तनुः, सविता
भगिनी,
मालति भगिनी वक्तुमिच्छति चेत् करोतु, नो चेत् सविता भगिनी। सविता भगिनी,
भीष्मः शन्तनु इच्छामरणं। भीष्मः शन्तनु,
नो न, शन्तनु इस् लैक् गुरु, उकारान्त
गुरोः,
गुरोः,
गुरोः, यस् गुरोः। भीष्मः शन्तनोः इच्छामरणं इच्छामरणं प्राप्तवान्।
सम्यक्, इच्छामरणं प्राप्तवान्। अस्तु, उषा
आं भगिनि, विदुशन्तनुः
इन्द्रः, इन्द्रः
कर्णात् कवचकुण्डलानि प्राप्तवान्।
प्राप्तवान्, अस्तु, कवचकुण्डलानि प्राप्तवान्। अस्तु, अग्रे अस्ति परशुरामः। अस्तु, अम्ब अग्रे।
कर्णः परशुरामात् ब्रह्मास्त्रविद्यां प्राप्तवान्।
सम्यक्, परशुरामात् ब्रह्मास्त्रविद्यां प्राप्तवान्। अस्तु, जयश्री भगिनी।
अर्जुनः देवात् द्रव्यास्त्राणि प्राप्तवान्, दिव्यास्त्राणि प्राप्तवान्।
दिव्यास्त्राणि प्राप्तवान्, परन्तु अत्र देवाः बहुवचनम् अस्ति, बहुवचनमस्ति चेत् पदमस्ति चेत् एभ्यः, नो चेत् मूलरूपं भ्यः एव,
देवेभ्यः,
देवेभ्यः।
धन्यवादः भगिनि।
निश्चयेन, देवेभ्यः दिव्यास्त्राणि प्राप्तवान्। अस्तु, लता भगिनि।
आं भगिनि, युधिष्ठिरः यक्षात् सहोदराणां पुनर्जीवनं प्राप्तवान्।
सहोदराणां पुनर्जीवनं प्राप्तवान्। एकैकं प्रत्येकं वाक्यस्य कथा अस्ति खलु, उत्तमा कथा। अस्तु, अग्रे सविता भगिनी।
भीमः बलरामात् गदायुद्धविद्यां प्राप्तवान्।
गदायुद्धविद्यां प्राप्तवान्। अस्तु, अग्रे गच्छामः। पञ्चमी विभक्ति उपपदम्। अस्तु, उषा भगिनी पठति वा?
आं भगिनि, उपपदम्
उपपदं मीन्स् एतादृशपदम् आगच्छति चेत् तस्य पार्श्वे पञ्चमी विभक्ति भवति इति उपपद, उदाहरणार्थं सः, विना, एतादृशपदमपि उपपद एव।
रमेश, सुरेश, अद्य भवान् प्रातः कुत्र गतवान्? रमेश, अद्य भवान् प्रातः कुत्र गतवान्? अष्टवादनात् आरभ्य अहं भवतः गृहे एव आसम्।
आसम्, अस्तु, सो अत्र रमेशः इस् आस्किङ्ग् सुरेश, अद्य आरभ्य कुत्र गतवान् इति। सो अत्र अष्टवादनात् आरभ्य, सो अत्र द्विविधम् अस्ति, आरभ्य इति वदामः चेत् पर्यन्तम् इति पदं नास्ति तत्र पर्यन्तं खलु पर्यन्तम् इति नास्ति केवलं स्टार्टिङ्ग् पायिण्ट् आरभ्य एव पर्यन्तम् इति नास्ति परन्तु पर्यन्तम् अस्ति चेत् तः पर्यन्तम् इति भवति अष्टवादनतः नववादनपर्यन्तम् इति भवति परन्तु तादृशं नास्ति चेत् अष्टवादनात् आरभ्य एव पर्याप्तम्
अष्टवादनतः
पञ्चमी एव नो अहं किं वदामि इत्युक्ते साधारणतया अष्टवादनतः इति वदामः चेत् अष्टवादनतः नववादनपर्यन्तम् इति एवं नाट् नाट् आल्वेस् बट् यूजुवलि इति साधारणतया एवमेव वयं वदामः परन्तु पर्यन्तम् इति न जानीमः चेत् केवलम् आरभ्य इति यूसेज् मध्ये अस्ति व्यवहारे एवमेव वदामः इति
From
no, no, Arabhya means starting.
Yeah, starting from 8 o'clock till now.
No, we don't know till when, just starting. Like starting today, I will do yoga. Adhya Arabhya aham yoga asanam karomi. Until when, we don't know. Kevalam starting janami.
But in this sentence, he's saying that I am here from 5 a.m.
I will ashtavadana tarabhya aham bhavatah grihe eva asam. I was in your house only.
Oh, it is in the past tense. Asam is past tense.
Asam. I was in your house.
From 8 o'clock. Okay.
So he's asking, Suresha, bhavan kutra gatavan. I was in your house from 8 o'clock. अष्टवादनात् आरभ्य भवतः गृहे एव आसं कुत्र गतवान् इति स्टार्टिङ्ग् 8 ऐ वास् देर् अस्तु अग्रे अम्ब पठति वा
सुरेशः ह्य मम मातुलः आगतवान् सः माम् इत जन्तुशालां नीतवान्
जन्तुशाला आम् so he is explaining saha uttaram dadati yah mama matulah agatavan saha mam itah itikte grihatah jantushalam itikte
zoo
jantushala netavan ast agrimam api patatamba
rameshah jantushalayam simha drishtavan va
सिंहं दृष्टवान् वा उत्तमं धन्यवादः अस्तु जयश्री भगिनि
आं भगिनि सुरेशः आं भोः परन्तु सिंहः पञ्चरात् बहिः एव भ्रमति वयं याने उपविश्य तं दृष्टवन्तः तत्र एकः आरक्षकः एकं मृगं सिंहात् रक्षितवान् मम तु सिंहात् भीतिः
सो अत्र सिंहः पञ्चरात् पञ्च इत्युक्ते लैक् अ केज् पञ्चरात् बहिः एव भ्रमति सिंहः पञ्चरात् बहिः पञ्चरे न आसीत् सः सिंह पञ्चरात् बहिः एव भ्रमति वयं याने उपविश्य यानम् इत्युक्ते वाहनं कार्यानम् इति वदामः खलु कार्याने उपविश्य तं दृष्टवन्तः
We
were in a van, in a van or a car, and the lions were roaming outside. Tatra ekah arakshakah ekam mrigam simhat rakshitavan. So there was another animal. तं मृगं
मृगं मीन्स् डियर् भगिनि
मृगं मीन्स् डियर् बट् यु नो इट् केन् आल्सो मीन् अनदर् अनिमल् मृग इट् केन् आल्सो मीन् डियर् प्राब्लम् अस्ति वा ओके म्यूट् कृतवती अस्तु अस्तु सो अत्र एवम् आसीत् सिंहात् रक्षितवान् मम तु सिंहात् भीतिः सो भीतिः रक्षणं बोत् इस् पञ्चमी विभक्ति सिंहात् भीतिः सिंहात् रक्षितवान् इति अस्तु अग्रे अग्रे
भगिनि सिंहात् रक्षितवान् सो दट् मीन्स् देर् वास् अनदर् मृगा दट् एनिमल् दट् वास् रेस्क्यूड्
animal was rescued from the simha arakshakah ekam mrugam simhat rakshitavan mrugam here it could be deer or it could be any other animal but here we can assume it is a deer
thank you
dhanyawad bhaini simhat rakshitavan simhat bhitihi both पञ्चमी विभक्ति अस्तु अग्रे का
लता भगिनि
वदतु भगिनि
रमेशः कदा ततः गृहम् आगतवान् सुरेशः नववादनात् द्विवादनपर्यन्तम् अहं जन्तुशालायाम् एव आसम् पठामि वा भगिनि
पठतु
द्विवादने जन्तुशालायाः बहिः आगतवान् चतुर्वादने गृहं प्राप्तवान् पञ्चवादनात् परम् अहं मम गृहे एव आसम्
धन्यवादः भगिनि कदा ततः गृहम् आगतवान् फ्रम् देर् इति ततः दिस् इस् आल्सो पञ्चमी इतः आल्सो पञ्चमी फ्रम् हियर् इतः ततः गृहम् आगतवान् नववादनात् सो अत्र पश्यतु नववादनात् द्विवादनपर्यन्तं सो हियर् आरभ्य नास्ति नववादनात् आरभ्य इति नास्ति नववादनात् द्विवादनपर्यन्तम् अथवा नववादनतः द्विवादनपर्यन्तम् अहं जन्तुशालायाम् एव आसम् द्विवादने सो कदा वादने उपयोगं कुर्मः इत्युक्ते किमपि तस्मिन् समये कुर्मः चेत् नववादने पठामि द्विवादने निद्रां करोमि एतादृशं सो अत्र द्विवादने जन्तुशालायाः बहिः आगतवान् चतुर्वादने गृहं प्राप्तवान् पञ्चवादनात् परम् आफ्टर्वर्ड्स् परं सो अत्र परः नास्ति पञ्चवादनात् परम् अहं मम गृहे एव आसम् इति सो अत्र परम् इति अस्ति चेत् अव्ययमपि अस्ति अपि च विशेषणमपि अस्ति सो अत्र अव्ययं विशेषणं कदा भवति अर्जुनात् परः भीमात् परः अर्जुनः अर्जुनात् पूर्वः भीमः सो तत्र पुल्लिङ्गपदम् अस्ति अत्र पुल्लिङ्गं नास्ति केवलम् अव्ययमेव परं पूर्वमपि समानमेव
भगिनि इतः ततः पञ्चमी विभक्ति बहुवचनं पदात्
No, no, this is like an avyaya. Itaha, tataha, like that.
So it's not panchami, but it is avyayam.
avyayam, but it is used like panchami, like itah, from here, iti. Good question, Bhagini. So it is like an avyayam using panchami vibhakti, like that. Udaharanartham vayam vadama kalo uchaihi shanaihi, that is like tritiya bahuvachanam. It is like tritiya vibhakti, but it is an avyayam. Ekavachanam dvivachanam iti nasti. उच्चैः कथं वदति उच्चैः वदति सो इट् इस् लैक् तृतीया विभक्तिरूपं बट् इट् इस् एन् अव्ययम् अत्रापि तथा एव इतः ततः पञ्चमी विभक्तिरूपम् अस्ति अव्ययम् अस्ति So another usage for panchami is when we say karanat, etasmat, because of that iti. Udaharanartham, so after explaining everything, aham jantu shalam gatavan, tasmat aham grihe na asam. That means because of that, tasmat. Mm. So we can say tasmat aham grihena asam, or we can say tatah aham grihena asam. That also means because of that iti. Tatah aham grihena asam athava tasmat karanat. So all these usage is like panchami. We can say like this. तस्मात् अहं गृहे न आसम् तस्मात् कारणात् अहं गृहे न आसम् ततः अहं गृहे न आसम् अस्तु सो अत्र सारांशः एवम् अस्ति आरभ्य बहिः रक्षति परं भयम् इत्येतेषां प्रयोगे पञ्चमी विभक्तिः भवति इति उदाहरणरूपेण दत्तम् अस्ति इदानीम् अभ्यासमेव अग्रिम पुटं 124 अत्र आवरणे आवरणम् इत्युक्ते पेरन्थिसिस् आवरणे दत्तानां शब्दानां पञ्चमीविभक्तिरूपैः यथोदाहरणं रिक्तस्थानानि पूरयत अस्तु सविता भगिनी अग्रे
आं भगिनि नगरात् बहिः नदी प्रवहति
नगरात्
बहिः नदी प्रवहति डाश् बहिः बाला क्रीडन्ति प्रकोष्ठः प्रकोष्ठात् बहिः बालाः क्रीडन्ति
अस्तु अग्रिममपि करोतु
भगिनि आं भगिनि गृहात् बहिः वृक्षाः सन्ति
धन्यवादः उषा भगिनी अग्रे वाटिका गृहम् अभवत् वाटिका
बहिः मार्गाः सन्ति वाटिका वाटिकात् बहिः
सो बिकास् इट् इस् स्त्रीलिङ्गपदं वाटिकायाः
ओ वाटिकायाः बहिः मार्गाः सन्ति वाटिकायाः
वाटिका इत्युक्ते उद्यानं अस्तु अग्रिममपि करोतु भगिनि
आरभ्य एव कृष्णः बहुः
न दिस् वन् नम्बर् फोर्
पञ्चवादनात् आरभ्य मन्दिरम् उद्घाटितं भवति
सम्यक् पञ्चवादनात् आरभ्य मन्दिरम् उद्घाटितं भवति अस्तु अम्ब
बाल्यकालात् आरभ्य एव कृष्णः बहु चटुलः आसीत्
चटुलः बाल्यकालात् आरभ्य अस्तु अग्रिममपि
आरभ्य ज्येष्ठमासपर्यन्तम् उत्तरायणं भवति.
पौषमासात् आरभ्य ज्येष्ठमासपर्यन्तम् उत्तरायणं भवति. अस्तु, सम्यक्
भगिनी. चटुलः इत्युक्ते किम्?
चटुलः इत्युक्ते किं? लैक्
चञ्चलः,
सञ्चलः, नाटि इति वदामः खलु आङ्ग्लभाषायां. लैक् इतस्ततः गच्छति, एक क्षणम् अपि मौनं न
तिष्ठति,
तादृशम्. अस्तु, जयश्री भगिनी अग्रे.
सः प्रतिदिनं सायङ्कालात् आरभ्य रात्रिपर्यन्तं गीताभ्यासं करोति.
गीताभ्यासं करोति. अत्र पश्यतु उषा भगिनी, आरभ्य अपि अस्ति, पर्यन्तमपि अस्ति, परन्तु आरभ्य अपि अस्ति. सायङ्कालात् आरभ्य रात्रिपर्यन्तम्. अस्तु, अग्रे भगिनि.
देवः सञ्जनात् दुष्टात् सञ्जनान् दृष्टात् रक्षति.
परन्तु सज्जनान् परन्तु अत्र बहुवचनमस्ति.
किमर्थम्
इत्युक्ते दुष्टः इति अकारान्तपदम्, अकारान्तपुल्लिङ्ग, अतः ए भवति, दुष्टेभ्यः, रामेभ्यः इव.
धन्यवादः.
अग्रिममपि करोतु भगिनि. कृतवती वा? कृतवती. अस्तु, अग्रे.
आरक्षकाः देशं चोरात् चोरेभ्यः रक्षन्ति.
सम्यक्, चोरेभ्यः रक्षन्ति. अस्तु, धन्यवादः. अस्तु, अग्रे लता भगिनी.
आं भगिनि. सैनिकाः शत्रवः शत्रुभ्यः राज्यं रक्षन्ति.
सम्यक्, शत्रवः इति मूलरूपम् अस्ति. शत्रुभ्यः
राष्ट्रं रक्षन्ति. हे देव, मां सङ्कटानि सङ्कटेभ्यः रक्ष.
सम्यक्, सङ्कटेभ्यः रक्ष. सङ्कटम् इति मूलरूपं भवति, सङ्कट एव. सङ्कट अकारान्तपदम्, अकारान्त नपुंसकलिङ्गपदं, स्वतः सङ्कटेभ्यः. सम्यक्, अस्तु, धन्यवादः. अस्तु, अग्रे सविता भगिनि.
आं भगिनि. परं वैशाखमासः भवति, चैत्रं चैत्रात् परं वैशाखमासः भवति.
सम्यक्. सो अत्र पश्यन्तु, परम् इति अव्ययम् इव अस्ति, परं चैत्रात् परं. परन्तु यदि वयम् एवं वदामः, चैत्रमासः वैशाखमासात् परः और् पूर्वः, देन् इट् बिकम् पूर्वः और् परः, it will become visheshanam. Here it is only avyayam, param, purvam, like that. So avagachanti va, yatra yatra param bhavati yatra purvam bhavati iti.
Purvam purvah katam visheshanam bhavati bhagini?
So atra astu agre api agacchati. अग्रे आगच्छति भगिनि, पश्यामः. अस्तु, ओके. सो अत्र पश्यतु, साङ्ख्ययोगः कर्मयोगात् पूर्वः. सो वाट् ऐ सेड् वास्, वैशाखमासः चैत्रमासात् पूर्वः आर् परः बिकास् वि आर् टाकिङ्ग् अबौट् मासः.
So you said
it becomes a visheshanam at that time. Udaharanartham, I'll give a better example. Yudhishthirah asti. Anantaram kaha agatavan? Bhimah. Kalo? Bhimah. Anantaram Arjunah. Arjunah. So I can say Yudhishthirat parah Bhimah. Bhimat Purvah Yudhishthirah.
Okay.
Like Vaishaka Masat Purvah Chaitra Masah. Chaitrat Parah
Vaishaka
Masah.
Okay, you interchanged.
Interchange. But when we say Chaitra Masat Param Vaishaka Masah Bhavati. Afterwards.
Okay. Got it. Thank you.
So there is a subtle difference atra. Purvam, it can be avyayam or it can be like a visheshanam of what we are saying. Supposing we are talking about strilinga people, udaharanartham anya udaharanam na janami parantu aham kevalam sita asti अनन्तरं रुक्मिणी अस्ति इति. राधायाः परा सीता, सीतायाः पूर्वा राधा इति भवति. एव पूर्वा परा परं पूर्वम् एवं भवति.
अस्तु भगिनि, आगतम्.
अस्तु, अग्रे का
भगिनि? Instead of telling Chaitrat, I could have told Chaitra Masat Param Vaishaka Masa Bhavati.
That
should have been more appropriate, isn't it?
It's okay, Bhagini.
Chaitra Masat Param Vaishaka Masa. Chaitrat also is okay?
Chaitrat is also okay. Ashtu, agree?
Shall I do the 13th one also?
Bhagini.
Shanivasarah. शनिवासरात् परं रविवासरः भविष्यति.
रवि भविष्यति, सम्यक्. अस्तु, अग्रे उषा भगिनि. उषा भगिनि, अन्म्यूट् करोतु भगिनि.
आं भगिनि. परं फलं प्राप्नुवन्ति जनाः परिश्रमः. परिश्रमात् परं फलं प्राप्नुवन्ति जनाः.
अग्रिमम् किम्
बहुवचनं?
न परिश्रमः न बहुवचनं नास्ति. परिश्रमः इत्युक्ते एफर्ट्. परिश्रमात् परं फलं प्राप्नुवन्ति जनाः. बहुवचनं नास्ति. आम् भगिनि.
संस्कृतपाठनं सो नपुंसकलिङ्गं परं संस्कृतपाठनात् परं भवान् किं करिष्यति?
पाठनात् परं भवान् किं करिष्यति? अस्तु, नपुंसकलिङ्गम्. अस्तु, अम्ब अग्रे.
मूषकस्य बीजिः भवति. मूषकस्य
विडाल.
मूषकस्य
पञ्चमी वदतु. बिडालः अस्ति, पञ्चमी किं भवति?
मूषकस्य बिडालात्.
बिडालात्, सम्यक्. बिडालात् मूषकस्य बिडालात् भीतिः अस्ति. सो अत्र लुक् अट् द यूसेज्, अत्र षष्टि विभक्ति भवति. मूषकस्य बिडालात् भीतिः अस्ति, भीतिः भवति.
किमर्थं षष्टि भगिनि?
सो साधारणतया वयं किं वदामः, उदाहरणं पश्यामि. मम साधारणतया तथा एव भवति. ऐ हाव् इति भवति. मम भीतिः अस्ति सर्वत्र, तथा एव भवति.
मम इट् सूट्स् वेरि वेल् भगिनि, बट्
आम् आम् परन्तु इफ् यु वेर् टु से मूषकः तत्र भीतिम् अनुभवति. सो इट् बिकम् द्वितीया विभक्ति तत्र. अस्तु अस्तु, अग्रे जयश्री भगिनी. भीरुः
भीरुः तु अल्पम् अल्पात् अपि विभेति.
अल्पात् अपि विभेति, विभेति अपि भीतिः भयम् एतादृश समानार्थकपदम्. बिभेति, भीतिः, भयम् अनुभवति. भीरुः इत्युक्ते सर्वदा भयम् अनुभवति सः, धैर्यं नास्ति, अधैर्यवान् इति. न लट्लकार एव. गुड् क्वश्चन् भगिनि. सो सो वि लुक् अट् अष्टाध्यायी. सो अत्र सो वेन् सन्देहः अस्ति चेत् तत्र गच्छतु. भी दातु, भी बिभेति, परस्मैपदि लट्लकाररूपं बिभेति. उत्तमम्. सो अत्र अल्पात् अपि बिभेति, सर्वदा भयम् अनुभवति इति. अस्तु, अग्रे लता भगिनी.
डेश् अपि मा भीः इति विवेकानन्दः वर्तितवान्. कस्मात् अपि मा भीः इति विवेकानन्दः गर्जितवान्?
गर्जितवान् भीः अपि भयं मास्तु इति.
नेगेटिव् सेन्स्,
डोण्ट् बि अफ्रेड् इति. भीः अत्र नास्ति, परन्तु भीः इति वदामः चेत् मा भयम् इति. भीः बिभेति इति एव. बिभेतितः आगच्छति.
ओके,
मा भीः, डू नाट् बी अफ्रेड्.
ओ, मा मा भीः मीन्स् मा इस् नेगेटिव्, इस् इट्?
मा इस् नेगेटिव्, भीः भयम्.
धन्यवादः.
So, bhihi is the dhatu padam.
Dhatu padam, parantu bhihi iti te bhayam mastu iti.
I understood the meaning. I'm wondering why we are using the word bhihi. Is it a dhatu padam?
धातुतः कृदन्तरूपं सो ऐम् जस्ट् लुकिङ्ग् तत्र नास्ति कृदन्तपदम् मूलरूपं डज़न्ट् शो द विसर्ग नो परन्तु अत्र अपि नास्ति
so in this in these examples like mushakasya would never have I would have thought it was a misprint but I didn't know there was a usage like that mushakasya bidala
so it's always like that no like I have like supposing I say I have a daughter I cannot say aham I cannot start with aham I have to start with mama putri asti like that dasharathasya chatvarah putrah
I know you're using panchami right bidala
no but yeah bidalat bhitihi because of bhitihi parantu mushakasya bhitihi bhavati kasya bhitihi bhavati mushakasya bhitihi bhavati कस्मात् भीतिः भवति बिडालात् भीतिः भवति आमामाम् अस्तु अग्रे पूर्वं परं मञ्जुषायाम् इत्युक्ते बाक्स् मञ्जुषायां विद्यमानानां मीन्स् एक्सिस्टिङ्ग् लैक् इस् मञ्जुषायां विद्यमानानां शब्दानां साहाय्येन पूर्वं परम् उपयुज्य यतोदाहरणं वाक्यानि वदत सो हियर् इट् इस् लैक् अ विशेषणं साङ्ख्ययोगः कर्मयोगात् पूर्वः एवं सो देर् आल् पुल्लिङ्ग पदं सो इट् इस् परः पूर्वः एवं all these things are visheshyam.
Oh, even karma yoga.
Everything. So, purvam will become the visheshanam of that. Purvaha. Because of the pullinga padam. Udaharanartham, Sankhya yoga karma yogat purvaha. And then the next one, Sankhya Yoga, Arjuna Vishada Yoga, Paraha, afterwards. Purvaha Paraha.
So here Paraha is the Visheshyam?
No, Visheshanam.
Purvaha and Paraha are Visheshanam.
Visheshanam.
And Visheshya is Sankhya Yoga and Karma Yoga. Okay, got it.
Visheshanam will take the cue from the Visheshyam. Visheshyam pullinge asti chet, ekavachanam asti chet, vibhaktiya api yojayitva kurmaha iti. Astu, etat kurmaha va abhyasam. Astu, kasya pariyayaha, savita va lata va. Savita bhagini.
ज्ञानकर्मसन्न्यासयोगः कर्मयोगात् परः
परः सम्यक्
कर्मयोगः ज्ञानकर्मसन्न्यासयोगात् पूर्वः
पूर्वः सम्यक् अस्तु उषा भगिनि
कर्मसन्न्यासयोगः आत्मसंयमयोगः योगात् पूर्वः आत्मसंयोगः कर्मसन्न्यासयोगात् परः
सम्यक् अस्तु अम्बर्
आत्मसन्न्यासं आत्मसंयमयोगः ज्ञानविज्ञानयोग पूर्वः सम्यक्
सम्यक् सम्यक् पूर्वः सम्यक् सम्यक् एव जयश्री भगिनी अग्रे
अक्षरब्रह्मयोगः ज्ञानविज्ञानयोगात् परः अक्षरब्रह्मयोगः राजविद्याराजगुह्ययोगात् पूर्वः
पूर्वः अस्तु सम्यक् अग्रे गच्छामः वा अस्तु अग्रे अस्ति तद् शब्दः पुल्लिङ्गे नपुंसकलिङ्गे तस्मात् ताभ्यां तेभ्यः पुल्लिङ्गे एवम् अस्ति पुल्लिङ्गे नपुंसकलिङ्गे तेभ्यः इति भवति तस्मात् ताभ्यां तेभ्यः स्त्रीलिङ्गे तस्याः तस्मात् न भवति तस्याः परन्तु ताभ्यां समानम् ताभ्याम् अपि च ताभ्यः अपि किञ्चित् भिन्नं पुल्लिङ्गे एव तेभ्यः भवति स्त्रीलिङ्गे ताभ्यः पुल्लिङ्गे नपुंसकलिङ्गे तेभ्यः सर्वत्र एतेभ्यः केभ्यः सर्वेभ्यः एवम् एवं भवति परन्तु द्विवचनं सर्वत्र आभ्यां ताभ्याम् एवम् पुल्लिङ्गे नपुंसकलिङ्गे एतस्मात् तस्मात् कस्मात् सर्वस्मात् मात्मात् इति भवति स्त्रीलिङ्गे याः एवं भवति अस्तु एतान् श्लोकान् उच्चैः पठत लता भगिनी पठितुमिच्छति वा श्लोकः श्लोकम्
विद्या ददाति विनयं विनयाद्याति पात्रताम् पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्
ततः सुखम्
विद्या नराय विनयगुणं ददाति तेन नरः अर्हतां प्राप्नोति ततः धनं प्राप्नोति धनेन धर्मकार्याणि कृत्वा सः पुण्यं प्राप्नोति
उत्तमं सो तत्र सर्वत्र पञ्चमी विभक्ति विद्या नराय विनयगुणं ददाति विद्या ददाति विनयं विनयात् तेन विनयात् याति पात्रतां याति इत्युक्ते आगच्छति याति पात्रतां पात्रताम् इत्युक्ते अर्हताम् अर्हताम् इत्युक्ते कथं वदामः पात्रताम् अधिकारः सो इत्युक्ते अहं एतत् सम्पादयितुम् अधिकारं प्राप्नोमि इति ज्ञानं प्राप्तुम् अधिकारं प्राप्नोमि न पठामि चेत् कथं ज्ञानं प्राप्तुम् अधिकारः लभ्यते न लभ्यते इति पात्रताम् इति
Bhagini, I had this shloka in 4th standard Sanskrit, Bhagini.
Oh, wow.
This shloka, I read it in 4th standard.
Uttama.
Just know it.
I think whatever you learn when you are young, it will stay with you, right?
Yes, Bhagini. The moment I read this, I could recollect.
Oh, Uttama, Bhagini. Thank you. So, Atra, Vinayat... याति पात्रता सो अत्र तृतीया विभक्ति अपि भवति विनयेन पात्रतां याति विनयेन याति पात्रतां सो पञ्चमी प, पञ्चमी अपि च तृतीया. उदाहरणार्थं तेन कारणेन पात्रतां प्राप्नोति. तेन कारणेन अथवा ततः और तेन. सो दे आर् इण्टर्चेञ्जबल् तृतीया पञ्चमी. सो अत्र पश्यतु ततः तेन अर्हतां प्राप्नोति ततः धनं प्राप्नोति. सो दे आर् इण्टर्चेञ्जबल् पञ्चमी अपि च तृतीया. तेन कारणेन एव अहं तत्र गतवती. तस्मात् कारणात् एव अहं न गतवान् इति. ततः धनं प्राप्नोति पञ्चमी. अत्र तृतीया धनेन धर्मकार्याणि कृत्वा. सो अत्र पश्यामः विनयात् आतिपात्रतां पात्रत्वात् पञ्चमी. अगेन् पञ्चमी पात्रत्वात् प्राप्नोति. पात्रत्वात् धनम् आप्नोति प्राप्नोति समानार्थकः. धनात् पञ्चमी अगेन् धनात् धर्मकार्यं कुर्मः ततः सुखं पञ्चमी. सर्वत्र ततः आत् एव धनेन धर्मकार्याणि कृत्वा सः पुण्यं प्राप्नोति. पुण्यं प्राप्य सुखम् अनुभवति इति अर्थः अस्ति. विद्या सुखं ददाति इति अन्ते. उत्तमं खलु? बहु उत्तमम्. अस्तु, सविता भगिनी अग्रे.
आं भगिनि. अन्नात् भवन्ति भूतानि, पर्जन्यात् अन्नं सम्भवः, यज्ञान् भवति पर्जन्यो यज्ञकर्मसमुद्भवः.
Good, very good reading, Bhagini. I'm very bad in reading.
धन्यवादः भगिनि. सर्वे अपि जीवाः अन्नस्य कारणेन एव जन्म प्राप्य जीवनं कर्तुं शक्नुवन्ति भवति. यज्ञः, दानं, सत्कार्याणि एव वृष्टेः उत्पादेन कारणानि.
उत्पादने कारणानि. सो अत्र अन्नात् अत्रापि पञ्चमी. अन्नात् भवन्ति भूतानि, पर्जन्यात् अन्नं सम्भवति. लैक् फ्रम् अण्ड् टु इति. सर्वे अपि जीवाः अन्नस्य कारणेन एव जन्म प्राप्य जीवनं कर्तुं शक्नुवन्ति. अन्नात् भवन्ति भूतानि, पर्जन्यात् अन्नसम्भवः. अन्नं तु वृष्टिकारणेन, पर्जन्य इत्युक्ते वृष्टि, पर्जन्यवृष्टिकारणेन एव भवति. परन्तु वृष्टिः कदा भवति? यज्ञात् भवति पर्जन्यः. यज्ञं कुर्मः चेत् एव वृष्टिः भवति. यज्ञः कर्मसमुद्भवः. सो अतः सर्वस्य कारणम् अस्ति यज्ञः. यज्ञः इत्युक्ते केवलं पूजा यज्ञः नास्ति, दानमपि यज्ञः एव. यज्ञः इत्युक्ते दानं. तादृशं दानं सत्कार्याणि एव वृष्टेः उत्पादने कारणानि इति. दानम् अपि च अन्यसत्कार्याणि इति. अस्तु, अग्रे उषा पठितुमिच्छति वा? भगवद्गीता किञ्चित् गीता.
आं भगिनि. भगवद्गीता किञ्चिदधीता
सङ्गाजललवकलवकरिका
पीता.
गङ्गा जललव कणिका पीता.
सकृदपि येन मुरारी समर्चा. ऐ एम् हेविङ्ग् डिफिकल्टी रीडिङ्ग्. ओके, सकृदपि येन मुरारी समर्चा यमेन न चर्चा,
यमेन न चर्चा. सो अत्र आदिशङ्कराचार्य भटगोविन्दम् इति चिन्तयामि. सो तत्र भगवद्गीता किञ्चित् अधीता इत्युक्ते किञ्चिदपि पठतु, किञ्चित् पठामः चेत् किं भवति, गङ्गाजललवकणिकापीता, गङ्गाजलं वयं पिबामः चेत् पुण्यं प्राप्नुमः, तादृशपुण्यं प्राप्नुमः. भगवद्गीता किञ्चित् पठामः चेत् अपि सकृत् अपि सकृत् सकृत् अपि येन मुरारिसमर्च कृष्णं पूजयामः चेत् उत्तमकार्याणि कुर्मः चेत् बै होम् मुरारिसमर्च पूजां कुर्मः चेत् क्रियते. येन बै होम् आल् दिस् इस् डन् क्रियते तस्य फार् हिम् यमेन न चर्चा. इत्युक्ते डेत् गाड् अस्ति खलु यमः, यमः तस्य हानिं न करोति इति, यमेन न चर्चा. सत्यं सत्यवाक्यं न, परन्तु एवमस्ति.
अस्माकं टाक् अबौट् यम, चर्चा इस् कान्वर्सेशन् आर् टाक्.
Talk about, I mean, like, you know, I think basically what he's saying, we don't need to worry about death.
Death, death.
There's no question of death.
There is no question. Death is coming, but yamena na charcha, like, you know, we don't have to beg God, beg Yama. Kinchit kalam dadatu, kinchit api kalam dadatu. We'll be ready to go anytime. Iti. Tadusha arte asti. Bhagavad Gita patatu. Tadusha पठामः चेत् गङ्गाजलम् इव गङ्गाजलकणिका पीता इव पुण्यं प्राप्नुमः. सत्कार्यं डिस्कशन्. सो वि डोण्ट् नीड् टु डिस्कस् वित् यम, युनो,
हेव् एनी कन्सर्न्
कन्सर्न् तादृशं न भवति इति. By whom we are doing, I mean, by whom all this is done, they will not have any problem to face death. That's what I understand.
What is sakritapi? Sakritapi mean?
Sakrit means doing good things. Sakrit.
Or action.
Action, yeah. Sakrit api yena, all this is done by whom, by whoever, Murari Samarcha. Samarcha means Namati, Murari itikte Krishna. Those who pray to God and Bhagavad Gita, Patitva, Ganga, Jala, Pitva, Iva Bhavati Punyam, Parantu te api satkaryam kritva, एतादृशसत्कार्यं करोति चेत् यमेन सह चर्चा न करोति. सत्यं. सो अत्र पुनः तः पर्यन्तं नगरदर्शनं कदा इति. अस्तु, अम्ब पठति वा?
नगरदर्शनं कदा? एतां विनोदकणिकां पठतः कश्चन ग्रामीणः नारददर्शनात् महानगरं गतवान्.
नगरदर्शनार्थं
नगरदर्शनार्थं महानगरं गतवान्. यदा बुभुक्षा जाता तदा सः एकं भोजनालयं गत्वा पृष्टवान्, अत्र भोजनस्य अल्पाहारस्य च सम्यक्कः इति.
एकनिमिषम् अम्ब, धन्यवादः. सो अत्र बुभुक्षा अपि तथा एव, बुभुक्षा जाता, बुभुक्षा इत्युक्ते हङ्गर्, हङ्गर् jata, it happened. That means he became hungry. So atra, we can say it in this way also. Tasya katam vadamaha. Tasya bubuksha jata. Tasya bubuksha jata. If I want to say saha, then how will we say?
Saha bubuksham abhavat.
Saha bubuksham. Bubuksham anubhutavan. Like or anubhavati. Atava, we can say saha
bubuksha asti.
Bubukshitaha asti. Bubukshitaha asit.
Can we say abhavat?
Bubukshitaha abhavat. Abhavat asit.
Is what word?
Good question. Bubukshitaha is a visheshanam. Kim?
Then what is the visheshyam?
Saha.
Okay.
Saha is the visheshyam.
Okay. Saha bubukshitaha is like an adjective then.
Adjective, like saha kupitaha, saha santushtaha.
Oh, okay.
Same thing, santushtaha api. Saha santushtaha asit, saha santosham anubhavati or anubhutavan, tasya santoshaha. So we have bubuksha, bubuksham, bubukshitaha. All three different usages. Binna binna artham, arthaha asti.
Mm-hmm.
Uttamam khalo? Beautiful.
Bahu uttamam.
Bahu uttamam. Astu. Jai Shri Bhagini Agri.
Tada bhojanala yaswami uttavan. Prataha sapta vadanataha ekha dasha वार्धन पर्यन्तम्
अल्पाहारः ब्रेकफास्ट्
ओ ओके
भोजनस्वामी मीन्स् दि ओनर् स्वामी भोजनशाला भोजनालय स्वामी उक्तवान् दि ओनर् सेस् प्रातः मार्निङ्ग् सप्तवादनतः एकादशवादनपर्यन्तं सो 7 to 11 पर्यन्तम् अल्पाहारः अस्तु भगिनि अग्रे पठतु
मध्याह्ने द्वादशवादनतः त्रिवादनपर्यन्तं भोजनं सायं पञ्चवादनतः रात्रौ दशवादनपर्यन्तं रात्रिभोजनम् इति
रात्रौ रात्रि बिकम्स् रात्रौ सप्तमी विभक्ति मध्याह्नः मध्याह्ने अपि सप्तमी विभक्ति परन्तु अत्र प्रातः इति वदामः चेत् केवलम् अव्ययमेव प्रातः प्राते न भवति प्रातः परन्तु प्रातःकालः इति वदामः चेत् प्रातःकाले इति भवति नो चेत् प्रातः एव प्रातः अस्तु अग्रे लता भगिनि
आं भगिनि एतस्य श्रवणानन्तरं सः ग्रामीणः पृष्टवान् महाशय यदि एतावान् कालः अल्पाहारार्थं मध्याह्ने भोजनार्थं रात्रिभोजनार्थं च भवति तर्हि मम नगरदर्शनं कदा भविष्यति इति
अत्र एव अल्पाहारं भोजनं रात्रिभोजनमपि कुर्मः चेत् कदा नगरदर्शनं भवति सम्यक् सो अत्र अपि एतावत् वयं वदामः खलु तावत् इति यावत् तावत् सो अत्र तावत् यावत् तावत् इति वदामः खलु यावत् तावत् सो दिस् इस् आल्सो नाट् एन् अव्ययम् दिस् इस् अ विशेषणम् इट् इस् लैक् भवत् शब्दः भवत् शब्दः इस् लैक् दिस् भवत् वाट् इस् द प्रथम विभक्ति आफ् भवत् भवान् भवान् पुल्लिङ्गपदं भवान् एवमेव सो अत्र एतावत् मीन्स् दिस् टैप् रैट् एतावत् तावत् एतावत् एतावत् विल् बिकम् एतावान् बिकास् आफ् कालः पुल्लिङ्गपदम् एतावान् कालः
बहुवचनं
न एकवचनं पुल्लिङ्ग एकवचनं किमर्थं पुल्लिङ्ग एकवचनं कालः इति पुल्लिङ्ग एकवचनं कालः कालौ काले बट् वि जनरलि अण्ड् देन् वि जनरलि डोण्ट् से दोस् थिङ्ग् कालाः लैक् दट् कालः कालौ कालाः वि डोण्ट् से जस्ट् केवलं कालः बट् इट् इस् अ पुल्लिङ्गपदं काले प्रातःकाले इति सप्तमी विभक्ति अपि भवति सो अत्र सो पुल्लिङ्गपदं सो ऐ जस्ट् वाण्ट् टु पायिण्ट् औट् दट् वन् एतावान् तावान् एतावान् कालः अल्पाहारार्थं मध्याह्ने भोजनार्थं भवति चेत् एवम् अग्रे गच्छामः ऐ थाट् इट् वास् इण्ट्रेस्टिङ्ग् एतावान् इति
सो इट्स् मोस्ट्लि यूस्ड् इन् एकवचनम् ओन्लि देन्
कालः आम्
इट्स् नाट् वेरि यूस्ड् इन् द्विवचनम् आर्
बहुवचनम् It can be used, I suppose, Bhagini, but here it is used like that. Like we say, Yavat Tavat is not an Avyayam. Mm-hmm. So I just want to point that out. Kinchana Gita Shibiram Pravartate. Pravartate naka, it is happening. Pravartate. Vartate means it is there pravartate it is there same thing pra it is happening tasya samaya sarini schedule samaya sarini atra asti tat drishtva kada kim pravartate iti likata kada means when what is happening kada kim pravartate iti likata udaharanartham varge षड्वादनतः सप्तवादनपर्यन्तं योगासनं प्रचलति अथवा षट्तः सप्तपर्यन्तं ओर् यु केन् आड् वादन योगासनं प्रचलति अग्रे किं प्रचलति कस्य पर्यायः गीतापारायणम् अस्तु सविता भगिनि न न दिस् इस् अट् नैट् भगिनि दिस् इस् अट् नैट् अग्रे गीतापारायणमेव
बट् देन् वाट् इस् हेपनिङ्ग् बिट्वीन् 7 to 8
हलो 9 to 10 नववादनतः दशवादनपर्यन्तं गीतापारायणं प्रचलति
गीतापारायणं प्रचलति सो अत्र विरामकालः भगिनि उपरि गत्वा अल्पाहारं करोतु स्नानं करोतु एतादृशम्
अष्टवादनतः अष्टवादनतः नववादनपर्यन्तम् अल्पाहारम्
अल्पाहारं भगिनि अष्टवादनतः नववादनपर्यन्तम् अल्पाहारम् अथवा विरामसमयः.
नववादनतः दशवादनपर्यन्तं गीतापारायणम्
गीतापारायणं प्रचलति. अस्तु, उषा भगिनी अग्रे.
गीताप्रवचनं प्रचलति.
एकादश
वादनतः द्वादशपर्यन्तं गीताप्रवचनं प्रचलति.
गीताप्रवचनं प्रचलति. अस्तु, अम्ब अग्रे सम्भाषणवर्गः. अन्यत् करोतम्
पञ्चवादने
न न त्रिवादनतः
त्रिवादनतः
चतुर्
चतुर्वादनतः
चतुर्वादनपर्यन्तं
चतुर्वादनपर्यन्तं
किं प्रचलति?
अल्पाहारं
न अत्र द्रष्टुं शक्नोति वा? त्रिवादनतः चतुर्वादनपर्यन्तं
पर्यन्तं
सम्भाषणवर्गः.
सम्भाषणवर्गं प्रचलति.
सम्भाषणवर्गः प्रचलति. वर्गः पुल्लिङ्गपदम्. वर्गः प्रचलति. अस्तु, धन्यवादः. जयश्री भगिनी.
पञ्चवादनतः षट्वादनपर्यन्तं गीताध्ययनं प्रचलति.
गीताध्ययनं प्रचलति. अस्तु, लता भगिनी अन्ते.
आं भगिनि, सप्तवादनतः अष्टवादनपर्यन्तं गीताध्ययनं सोरि गीतोपन्यासः.
सम्यक् गीतोपन्यासः. आ अधिकम् उ ओ भवति. गीता उपन्यासः गीतोपन्यासः प्रचलति. अस्तु, अग्रे अपि तथा एव अस्ति. तः पर्यन्तम् इति योजयित्वा लिखत. केवलं वादनम् इति न, अग्रे अपि अस्ति. द्वितीयाध्यायस्य ओ श्लोकतः पञ्चाशत्तम श्लोकतः एक कथं वदामः षष्टितमश्लोकपर्यन्तं स्थितप्रज्ञलक्षणमस्ति. कठिनं वा? सो अत्र विंशति आरभ्य तम इति योजनीयं. सो दिस् इस् काल्ड् पूरणप्रत्ययः. पूरणप्रत्ययः इस् वेन् वि से लैक् फस्ट् सेकेण्ड् डे, नाट् एकं द्वे त्रीणि चत्वारि न, प्रथमः द्वितीयः तृतीयः. अस्माकं केलेण्डर् मध्ये अस्ति खलु प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी अष्टमी नवमी इति. नवमी एवम् ई आ अस्ति. किमर्थम् इत्युक्ते तिथिः इति स्त्रीलिङ्गपदम्. परन्तु अत्र श्लोकः तथा नास्ति, पुल्लिङ्गपदं श्लोकः. परन्तु तम इति योजनीयं. लैक् वेन् वि से 67th इत् आर् फस्ट् आर् एवम् अस्ति खलु. सो वि से 71st अथवा 67th. सम्टैम्स् वि यूस् एस् टि, सम्टैम्स् वि यूस् टि हेच् आङ्ग्लभाषायां. परन्तु संस्कृतभाषायां सर्वत्र तम विंशति आरभ्य. सो अत्र 55 सो विसे पञ्च पञ्चाशत् तम श्लोकतः सो इट् इस् वन् वर्ड् एकमेव पदं पञ्चपञ्चाशत्तम श्लोकतः द्वितीयाध्यायस्य द्वितीया हियर् वि डोण्ट् यूस् तम द्वितीयाध्यायस्य द्वितीया अध्यायस्य द्वितीयाध्यायस्य पञ्चपञ्चाशत्तम श्लोकतः एकषष्टितम श्लोकपर्यन्तं स्थितप्रज्ञलक्षणम् अस्ति इति अग्रे प्रयत्नं कुर्मः वा कथं कथं कुर्मः
द्वादश चलाय ट्रै भगिनि
आम् आं भगिनि
द्वादश अध्यायस्य त्रयोदशतम श्लोकतः
अत्र तमं मास्तु ओन्लि आफ्टर् 20 आरभ्य तम भवति त्रयोदश श्लोकतः
श्लोकतः नवदश श्लोकपर्यन्तं भक्तलक्षणमस्ति
भक्तलक्षणमस्ति उत्तमं भक्तलक्षणमस्ति अस्तु लता भगिनि अग्रे
आं भगिनि षोडश भगिनि
आम् आम् सम्यक्
षोडशाध्यायस्य प्रथम श्लोकतः तृतीयश्लोकपर्यन्तं दैवीसम्पत् उक्ता अस्ति
सम्यक् उक्ता अस्ति सम्यक् भगिनि अस्तु भगिनि
दशाध्यायस्य दशाध्यायस्य
दशमोऽध्यायस्य
भगिनि दशाध्यायस्य
दशमे दशमोऽध्यायस्य
दशमोऽध्यायस्य 20
विंशतिः
दशमोऽध्यायस्य विंशतितम श्लोकतः एक दश विंशति चत्वारिंशति एकचत्वारिंशत् तमश्लोकपर्यन्तम् ईश्वरस्य विभूतस्य उक्ताः
विभूतयः उक्ताः सम्यक्
विभूतयः उक्ताः
सम्यक् सम्यक् धन्यवादः दशमोऽध्यायस्य विंशतितम
श्लोकतः एकचत्वारतम श्लोकपर्यन्तः ईश्वरस्य विभूतयः उक्ताः
सम्यक् एकचत्वारिंशत्तम श्लोकपर्यन्तं ईश्वरस्य विभूतयः उक्ताः अस्तु उषा भगिनी
द्वादश
षष्ठोऽध्यायस्य
एकादश
एकादश
एकादशोऽध्यायस्य
एकादशाध्यायस्य एव
एकादशाध्यायस्य एकादश ओके दट् वस् दश मी इट् ओके एकादशाध्यायस्य दश दशतम
दश श्लोक एव अत्र तम न आगच्छति
दशश्लोकतमः
दशश्लोकतः
त्रयोदशश्लोकपर्यन्तं एकादशाध्यायस्य
दशम खलु दशम टेन् इस् दशमी और् दशम
दशमत
दशमश्लोकतः दशमश्लोकतः
ओके दश दशश्लोकतम
दशमश्लोकतः अत्र मा आगच्छति
ओके दशमश्लोकतः त्रयोदश त्रयोदशतश्लोकपर्यन्तं
त्रयोदश एव त्रयोदशश्लोकपर्यन्तम्
Because
that is just fitting in the yeah, so the udaharanam has the tama in it.
Why is it over there and we're not putting it here?
Yeah, because starting with 20, we have to add tama. So here we said, vimshati tama slokataha.
Oh, I see. There's a cut-off point.
Chatur vimshatama slokapariyantam. So we add the tama here. Atra, we add the ma because for dasha we had dashama.
Instead of tama.
Yeah.
Dashama shlokataha. Trayo dasha shloka paryantam.
Paryantam. So atra ma nasti, tama api nasti. Trayo dasha shloka paryantam eva. अवगच्छन्ति वा सर्वे सो दिस् इस् काल्ड् पूर्णप्रत्ययः पूरण
विच् इस् काल्ड्
पूर्णप्रत्यय द होल् थिङ्ग् लैक् फस्ट् सेकेण्ड् थर्ड् लैक् देट् वेन् वी हेव् अ सीरीस् वेर् द आर्डर् इस् इम्पार्टेण्ट् लैक् द थर्ड् टु द फिफ्त् लैक् देट् इस् नाट् सेयिङ्ग् 10 श्लोका दश श्लोकाः iti na we are specific which shlokas from second to ninth iti dvitiya shlokatah nava shloka paryanta navama shloka paryantam so it is like this right prathama so the one has the ma in it prathama dvitiya it doesn't have the ma tritiya chaturthi panchami So the five also has the me in it, ma in it. Shashti doesn't have. Saptami has, saptama.
How do we remember this,
Bhagini? How do we remember it? I don't know.
Because unless we write it out.
Unless you write it out, but in the Hindu calendar we have it, right? In the temple when we say all these things, Sankalpa, Pratama, Dvitiya, Tritiya, Panchami, Chashti, Chaturthi, Saptami. So we know Sapta has the Ma in it. Ashtami has it, Navami has it, Dashami, Dashama. But Ekadashi Eva, it doesn't have the Ma.
Okay.
trayodashi, chaturdashi, panchadashi, there is no ma in it. Shodashi.
Ekadashi,
if it's a strilinga. Here it is, sloka is a pullinga. So it is ekadasha eva. Ekadasha adhyayasya. Because we are joining it, it is like a samasta padam, togetherness.
Mm-hmm.
So the vibhakti doesn't come there. Just the mula rupam, ekadasha adhyayasya. So it will be ekadasha adhyayasya, together like that.
Okay. Astu.
Astu. So etat patitva samapayamaha. तः पर्यन्तम् इत्यस्य एतादृशाः प्रयोगः अपि भवति नाट् जस्ट् वादनतः वादनपर्यन्तं नाट् जस्ट् लोकतः श्लोकपर्यन्तं बट् फार् प्लेसस् आल्सो हिमालयतः कन्याकुमारीपर्यन्तं भारतम् अस्ति आरम्भतः सो दिस् इस् वि आर् टाकिङ्ग् अबौट् एन् इवेण्ट् आल्सो आर् इन् अ बुक् आरम्भतः अन्तपर्यन्तं भगवद्गीतां पठतु इवन् इन् अ बुक् लैक् दट् आर् इन् अ कार्यक्रमः कार्यक्रमस्य आरम्भतः अन्तपर्यन्तं तत्र एव तिष्ठतु सो फार् एव्रिथिङ्ग् वी केन् यूस् तः पर्यन्तम् ओके सो अग्रिमवर्गम् इतः आरम्भं कुर्मः नम्बर् ऐ मीन् अध्यायः एक त्रिंशत्तम अध्यायं पठामः धन्यवादः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरि ओम् श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः.